संप्रभतो महेरो बहुभ्यः पन्थामनपस्वसानम् दैवस्वतम् सङ्गमानम् जनानाम् यमम् राजानम् भविषादुवस्य समो विवेदनैषारव्योतिरपभर्तबाहु यत्रा नः पूर्वे पितरः पदेयुरेणानिज्ञानापदा स्वाहा मातरीकव्यैर्यमो अङ्गीरोभिर्बृहस्पतिर्वृक्वभिर्वावृधानः यां च देवा पृथिव्ये च देवान् स्वाहान्ये स्वधयान्ये वदन्ति इमञ्जमप्रस्तरमायिषीयाङ्गीरोभिः पितृभिः संविधानः कविधस्तावाहम् वेलाराजङ्कविषा मादयस्व अङ्गीरोभिरागहि यज्ञेभिर्यमवैरूपैरिहमादयस्व हिमस्वन्तम् भुवेल पितारेऽस्मिन् यज्ञे भविष्यामिषच्च अङ्गीरतो न पितरो न वद्वा सर्वाणोभिगव सोम्यासाः ेषाम् वयम् सोमतौ यज्ञिया नामपि भद्रेतौ मनसे स्याम श्रेहि त्वयि पथिभिः पूर्वेभिर्यत्रा नः पूर्वे पितरः परेयुः उभारायामदन्तायमम् पश्यासि वरुणम् च देवम् सङ्गच्छस्व पितृभिः संयमेनेष्टा मूर्तेन परमेभ्यो वन् हित्वाया भज्यम् पुनरस्तमेहि सङ्गच्छस्व तन्वा सुवर्चाः अपेदवीतवि च सर्वदातोऽस्मायेतम् पितरो लोकमक्रन् अहोभिरद्भिरक्तभिर्व्यक्तम् यमोददात्यवसानमस्मै अनिद्रवसारमेलौ स्वानौ चतुरक्षौ सबलौ साधुना पथा अथा विदेन्सु विदेन ये स धमादम् वदन्ति द्वौ ते स्वानौ यमरक्षितारौ चतुरक्षौ पथिरक्षी विचक्षसौ ताभ्यामेनम् वरि देहि राजन् स्वस्तिलास्मानमेवम् च देहि गुरो न सावसुदृपाबुदम् बलौ यमस्य दूतौ च रतो जनाम् खलु तावस्मभ्यम् दृशये सूर्याय पुनर्दातावसु मध्येह भद्रम् यमायतोम् सुनदयमाय युहुता हविः यमङ्घयज्ञो गच्छत्यो हरम् कृतः यमाय घृतबद्धविर्घोधप्र च तिष्ठत ततो देवेष्वाय मद्दीर्घमाय प्रजीवसे यमाय मधुमत्तमम् राज्ञे हव्यम् जुहोदन इदन्नमरिभ्यः पूर्वदेभ्यः पूर्वेभ्यः पचिकृद्भ्यः ृगदृगेभिः पदजिषुर्वीरे कविद्बृहत् कृष्टुगायत्री सन्दाम् सर्वाताय महाहीता